अथ श्री कल्याण वृष्टि स्तोत्रम्। कल्याण वृष्टिभिरिवामृत पूरिताभिर् लक्ष्मी स्वयं वरण मंगल दीपिकाभिः सेवा नाकारि किं मनसि भक्तिमताय जनानाम्। एतावदेव जननिस्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे सानिध्यमुद्यदरुणा तसोदरस्य त्वद्विग्रहस्य सुधया परयाप्लुतस्य ईशित्वभावकलुषाक् कतिनाम सन्ति ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः। एकस एव जननिस्थिरसिद्धिरास्ते यः पादयोस्तव सकृत् प्रणतिं करोति। लब्ध्वा सकृत् त्रिपुरसुन्दरितावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षं कन्दर्पभावसुभगास्त्वयि भक्तिभाजस्। सम्मोहयन्ति तरुणीर्भुवनत्रयेषु ह्रीङ्कारमेव तव नाम गृणन्ति वेदा। मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे यत्संस्मृतौ यमभटादिभयं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः। हन्तुः पुरा मधिगलं परिपूर्यमाणक् क्रूरक् कथन्नु भवितागरलस्य वेगः। आश्वासनाय किल मातरिदन् तवार्धन् देहस्य शश्वदमृतालुतशीतलस्य। सर्वज्ञतां सदशिवापटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः। केच स्फुरन्मुकुटमुज्ज्वलमातपत्रन् द्वे चामरे च वसुधां महतीं ददाति। कल्पद्रुमैरभिमत प्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत् कटाक्षैः। आलोकय त्रिपुरसुन्दरि मामनाथन् त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम्। हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु त्वामेव देवि मनसि त्वामेव नौमि शरणै जगति त्वमेव लक्ष्येषु सत्स्वपि तवाक्षि विलोकनाना मालोकय त्रिपुरसुन्दरि मां कथैचित् नूनं मयापि सदृशं करुणैकपात्रै जातो जनिष्यति जनो न च जायते च ह्रीं ह्रीमिति प्रतिदिनै जपताय जनानां किन्नाम दुर्लभमिहत् त्रिपुराधिवासे माला किरीटमदवारणमालनीयां तां सेवते मधुमती स्वयमेव लक्ष्मीः सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि त्वद्वन्दनानि दुरितौघहरोद्यतानि मामेव मातरनिशङ्कलयन्तु नान्यम् कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परमेश्वरस्य पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका लग्नं सदा भवतु मातरिदन्तवार्धन् तेजः परं बहुलकुङ्कुमपङ्कषोणं भास्वत्किरीटममृतांशुकलावतंसम् मध्ये त्रिकोणमुदितं परमामृतार्द्रम् ह्रीङ्कारमेव तव धाम तदेव रूपं त्वन्नाम सुन्दरि सरोजनिवासमूले त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुह संभवादेः ह्रीङ्कारत्रय सम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रैः प्रतिवासरन् तव पुरो मातर्जपेन्मन्त्रवित् तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घवयः इति श्रीमच्छङ्कराचार्यविरचितं कल्याणवृष्टिस्तोत्रं सम्पूर्णम्।